रामाष्टकम् भजे विशेष सुंदरम समस्त पाप खंडनम स्वभक्त चित्त रंजनम सदैव राममद्वयम् सदैव राममद्वयम् जटाकलाप शोभितम् समस्त पापनाशकम् स्वभक्त भीति भंजनम् भजेह राममद्वयम् भजेह राममद्वयम् निजस्वरूप बोधकम् कृपाकरम् भवापहम् नमं शिवं निरंजनं भजेह राममद्वयं भजेह राममद्वयं सदा प्रपंच कल्पितं च नाम रूपवास्तवं नराकृतिं निरामयं भजेह राममद्वयं भजेह राममद्वयं निष्प्रपंच निर्विकल्प निर्मलं निरामयं चिदेकरूप संततं भजेह राममद्वयं भजेह राममद्वयं भवाब्धिपोतरूपकं कशेषदेहकल्पितं गुणाकरं कृपाकरं भजेह राममद्वयं भजेह राममद्वयं महासुवाक्यबोधकैर्विराजमानवाक्पदैः परं च ब्रह्मव्यापकं भजेह राममद्वयं भजेह राममद्वयम् शिवप्रदं सुखप्रदं भवच्छिदं भ्रमापहं विराजमानदैशिकं भजेह राममद्वयं भजेह राममद्वयम् रामाष्टकं पठति यः सुकरं सुपुण्यं व्यासेन भाषितमिदं शृणुते मनुष्यः विद्यां श्रियं विपुलसौख्यम् आनन्तकीर्तिं संप्राप्य देहविलये लभते च मोक्षम् इति रामाष्टकम्।